ओम गुरु ब्रह्मा गुरु विष्णु गुरु देव महेश्वर गुरु साक्षात पर ब्रह्म तस्मै श्री गुरवे नमः।
धन्यवाद महोदय। सर्वेभ्यो नमः, स्वागतं सर्वेषाम् अस्मिन् वर्गे। इदानीं तत्र गतवर्गे वयं विधिलिङ्गलकारः अस्माभिः कृतः, तत्र विधिलिङ्गलकारः अर्थद्वयम् अस्ति इति जानीमः। तत्र एकमस्ति सम्भावनार्थे, अन्यः अस्ति तत्र भिद्यर्थे। इदानीं तत्र अग्रिमविषयः अस्ति तत्र विधिलिङ्गलकारः एव, किन्तु एतावत् वयं विधिलिङ्गलकारः परस्मैपदी धातूनां विधिलिङ्गलकारं दृष्टवन्तः। इदानीम् आत्मनेपदिनः विधिलिङ्गलकारः पश्यामः। अतः तत्र अग्रिमे पाठे तत्र आत्मनेपदी धातूनां तत्र लङ्लकाररूपम् अपि विधिलिङ्गलकाररूपं द्वयमपि अस्ति, यतोहि तयोः तत्र रूपयोः मध्ये किञ्चित् सामान्यमपि अस्ति, भेदः अपि अस्ति। किन्तु तत्र यदि रूपाणि पश्यामः एतत् ज्ञातुं शक्नुमः। अतः तत्र रघुवीरन् स्वामी इदानीं तत्र 2 अधिकशततमे पुटे तत्र रूपाणि सन्ति, तत्र प्रथमतया तत्र लङ्लकारस्य आत्मनेपदी धातूनां लङ्लकाररूपस्य परिचयं कुर्मः। तत्र वर्धते वृद्ध धातुः।
वृद् धातुः अवर्धत अवर्धेताम् अवर्धन्त अवर्धताः अवर्धेताम् अवर्धध्वम् अवर्धे अवर्धावहि अवर्धामहि।
हा, इति एतत् लङ्लकाररूपम्। इदानीम् अग्रिमे पुटे तत्र विधिलिङ्गलकाररूपाणि दत्तानि सन्ति, पुनः वृद्धातोः रूपाणि कानि महोदय?
लङ्लकारः
एतत् लङ्लकारः अग्रे अग्रिमे पुटे
वर्धेयातां वर्धेरन् वर्धेथाः वर्धेयाथां वर्धेध्वं वर्धेय वर्धेवहि वर्धेमहि
इति अस्ति। अतः तत्र किञ्चित् सामान्यं दृश्यते, हा सादृश्यम् अस्ति खलु महोदय? तत्र दृष्ट्वा किं किं वक्तुं शक्नुमः महोदय? तत्र पाठनि
अकारः तु वर्जयित्वा वर्धत तत्र वर्धेत ईत तु भवति, अतः ई आगम तु भवेत् तत्र विधिलिङ्ग् मध्ये, किन्तु वर्धेथाः वर्धे अवर्धताः अवर्धेतां वर्धेयातां वर्धेद्वम् अवर्धद्वं समानं सादृश्यं दृश्यते। वर्धेय यकार तु आगच्छति एव विधिलिङ्ग् अवर्धावहि अवर्धामहि। महोदय, केवलं बहुवचनं प्रथमपुरुष बहुवचनम् एव तत्र अवर्धन्त अवर्धेरन्
इति। समीचीनं महोदय, तत्र तु भेदः अस्ति, तत्र
यकार आगच्छति खलु,
एकः एकारः आगच्छति तत्र, किन्तु सत्यं महोदय, तत् तदपि अस्ति। अतः तत्र बहुवचने प्रथमपुरुष बहुवचने अवर्धन्त इति अस्ति लङ्लकारे, किन्तु तत्र विधिलिङ्गलकारे वर्धेरन् इति अस्ति। अपि तत्र सर्वत्र तत्र लङ्लकारे अकारः अस्ति, अत्र तु अकारः नास्ति, किन्तु अत्र सर्वत्र एकारः अस्ति। तत्र वर्ध इति अस्ति अवर्धत इति स्थाने वर्धेत इति अस्ति, एकारः अस्ति। अपि यकारः आगच्छति, तत्र यकारः कुत्र कुत्र आगच्छति रघुपतिमहोदय?
तत्र
विधिलिङ्गलकारे यकारः
विधिलिङ्गलकारे तत्र द्विवचने आगच्छति,
द्विवचने आगच्छति,
मध्यपुरुषे द्विवचने अस्ति।
हा, वर्धे याथाम् अवर्धेताम् इति स्थाने अकारः त्यजामश्चेत् वर्धेथाम् इति अस्ति, तदेव अस्ति, किन्तु मध्ये यकारः अस्ति, वर्धे याताम्। पुनः वर्धे थाम् इति अस्ति तत्र, अवर्धे थाम् इति अस्ति अत्र, वर्धे याथाम् इति अस्ति अपि अपि अन्यत्र
अन्यत्र
अपि यकारः आगच्छति तत् कुत्र
अन्यत्र उत्तमपुरुषे एकवचने
उत्तमपुरुषे एकवचने समीचीनं महोदय. तत्र अवर्धे तत्र अकारः त्यजामश्चेत् वर्धे इति अस्ति किन्तु इदानीं तत्र वर्धेय इति अस्ति इति समीचीनं महोदय. हा अपि तत्र वयं जानीमः तत्र आत्मनेपदि धातूनां तत्र वर्धते इति तत्र वर्धते इति अस्ति लट्लकारे तत्र वर्ध तत्र वृद्ध अपि अकारः तदनन्तरं ते इति तत्र वर्धते इति भवति किन्तु अत्र तत्र विधिलिङ्गकारे वर्धेत इति अतः तत्र वृद्ध योगः एकारः योगः तकारः तत्र अतः तत्र वर्धेत इति अस्ति वर्धेत तत्र अथवा तत्र वन्दते इति अस्ति तद्भवति वन्देत अपि अतः तत्र एकारः तु सर्वत्र आगच्छति इति जानीमः यतोहि तत्र ए मध्ये अस्ति तत्र आत्मनेपदी तत्र प्रत्यये अतः तत्र सर्वत्र वर्धे इति अस्ति यकारः द्विवचने प्रथमपुरुषे मध्यमपुरुषे अपि उत्तमपुरुषे एकवचने भवति अपि तत्र अवर्धामहि अवर्धामहि तत्र तु वर्धेमहि वर्धेमहि तत्र तु सामान्यम् अस्ति एव. लक्ष्मी भगिनी नमस्कारः.
नमस्कारः महोदय.
नमस्कारः भगिनी. पुटसङ्ख्या अस्ति तत्र द्वि अधिकशततमे पुटे तत्र विधिलिङ्गकाररूपाणि आत्मनेपदि धातूनाम् अपि लङ्लकाररूपाणि तत्र सन्ति. अस्तु इदानीं तत्र अतः तत्र सामान्यमपि अस्ति तत्र कश्चन भेदः अपि अस्ति अतः तत्र क्लेशः भवितुम् अर्हति किन्तु पश्यामः. इदानीं तत्र केवलम् अभ्यासार्थम् एकवारं तत् पठामः. तत्र वर्तते इति अस्ति लभते जायते तत्सर्वम् अस्ति तद् उपयुज्य एकवारं तत्र रूपाणि वदामः अभ्यासार्थम्. अतः तत्र लक्ष्मीभगिनी प्राप्तं वा पुटसङ्ख्या प्राप्ता वा पुटं प्राप्तं वा लक्ष्मीभगिनी?
नमस्कारः महोदय.
द्वि अधिकशततमे पुटे अस्ति द्वि अधिकशततमे पुटे. अस्तु तावत् तस्मिन् समये तत्र रघुपतिमहोदय तत्र वर्तते इति रूपाणि एकवारं वदति वा महोदय तत्र लङ्लकारः अपि विधिलिङ्गकारः.
वर्तते अस्तु वर्तते अवर्तत अवर्तत अवर्तेताम् अवर्तन्त अवर्तथाः अवर्तेथाम् अवर्तत्वम् अवर्ते अवर्तामहि अवर्तामहि इति भवति. इदानीं वर्तेत वर्तेयात विधिलिङ्ग वर्तेत वर्तेयातां वर्तेरन् वर्तेताः वर्तेताः वर्तेयातां वर्तेत्वं वर्ते वर्तेय भवति खलु
वर्तेय वर्तेय
वर्तेय वर्तेवहि
वर्तेमहि. समीचीनं महोदय. क्लिष्टमस्ति सत्यं महोदय. अतः तत्र प्रायशः एतत् कुर्मः तत्र प्रथमतया तत्र विधिलिङ्गकारः त्यजामः तत्र लङ्लकाररूपस्य अभ्यासं कुर्मः तदनन्तरं विधिलिङ्गकारस्य अभ्यासं कुर्मः. अतः लक्ष्मीभगिनी इदानीं तत्र लभते तु तत्र दत्तमेव अस्ति तत्र जायते इति लङ्लकारस्य रूपाणि एकवारं वदति वा भगिनि?
जायते अजायत अजायेताम् अजाये अजायेरन्
न न विधिलिङ्गकारं मास्तु तत्र लङ्लकाररूपाणि पूर्वस्मिन् पुटे अस्ति अधोभागे
अजायत अजायेताम् अजायन्त पूर्वस्मिन्
पुटे. सत्यं सत्यं तदेव तदेव अजायत अजायेताम् अजायन्त
अजायेताम्
अजायध्वम्
अजायध्वम् अजाये अजायावहि अजायामहि.
हा समीचीनं भगिनि. इदानीं तत्र लङ्लकारे एकारः कुत्र कुत्र आगच्छति इति वदतु. एकारः
एकारः उत्तमपुरुषे
उत्तमपुरुषे आगच्छति एकवचने. समीचीनं. हा अजायते अजाये अजाये इति अस्ति तत्र आगच्छति एकारः अपि. वृद्धधातुरूपाणि दृष्ट्वा वदतु भगिनि. हा वृद्धातुः तत्र तस्य लङ्लकाररूपाणि दत्तानि सन्ति खलु भगिनि.
प्रथमपुरुषे
न न अजायेत न भवति खलु अजायत इति अस्ति. पुटसङ्ख्या अस्ति द्वि अधिकशततमे पुटे. गीताञ्जलि भगिनी नमस्कारः. चिन्ता मास्तु भगिनि. हा द्वि अधिकशततमे पुटे स्मः. हा लक्ष्मी भगिनी इदानीं तत्र वृद्धातुः रूपाणि सन्ति खलु भगिनि. न विधिलिङ्ग् मास्तु इदानीं विधिलिङ्ग् मास्तु. तत्र केवलं तत्र लङ्लकाररूपाणि पश्यन्तु. तत्र कृष्णवर्णे अस्ति खलु भगिनि.
अजायत अजायेताम् अजायन्त अजायतः अजायेताम् अजायध्वम् अजाये अजायावहि अजायामहि.
हा यानि रूपाणि भवती उक्तवती इदानीं.
प्रथमपुरुषे द्विवचने द्विवचने मध्यमपुरुषे द्विवचने अनन्तरम् उत्तमपुरुषे एकवचने.
समीचीनं भगिनि. हा तत्र एव एकारः अस्ति. समीचीनं भगिनि. अन्यत्र सर्वत्र तत्र अकारः एव तत्र वर्धत इति एव अस्ति न तु वर्धे इति अस्ति. समीचीनं भगिनि. हा अस्तु समीचीनं. इदानीं तत्र रघुवीरानन्दस्वामी इदानीं तत्र पुनः तत्र केवलं लङ्लकारस्य एव इदानीं शोभते इति इदानीं किन्तु तत्र सः अथवा तत्र किमपि शोभते इति स्वीकुर्मः. तत्र नक्षत्रं शोभते इति कुर्मः वा.
आं महोदय.
हा
नक्षत्रम्
अशोभत अशोभत
लङ्लकारः
लङ्लकारः लङ्लकारः. हा लङ्लकारं वक्तव्यं. हा
नक्षत्रम् अशोभत नक्षत्रे अशोभेताम् नक्षत्राणि अशोभन्त.
इदानीं त्वम् अपि अहं तावदेव.
आमां त्वम् अहं त्वम् अशोभताः त्वम् अशोभेतां त्वम् अशोभताः युवाम् अशोभेथाम् यूयम् अशोभद्वम् अहम् अशोभे आवाम् अशोभावहि वयम् अशोभामहि.
हा समीचीनं महोदय. समीचीनम् उत्तमम्. अस्तु रघुपतिमहोदय इदानीं तत्र कम्पते इति तत्र पुष्पं कम्पते इति
पुष्पम् अकम्पत पुष्पे अकम्पेतां पुष्पाणि अकम्पन्त भवति. त्वम् अकम्पथाः युवाम् अकम्पेथां यूयम् अकम्पध्वम् अहम् अकम्पे आवाम् अकम्पावहि वयम् अकम्पामहि.
हा समीचीनं महोदय. हा गीताञ्जलि भगिनी इदानीं सिद्धा वा भवति. अस्तु अस्तु. हा इदानीं तत्र विद्यते इति भगिनि तत्र विद्यते इति लट्लकाररूपम् इदानीं तत्र लङ्लकाररूपं तत्र विद्यते तत्र किं पुस्तकं विद्यते इति न तत्र. हा अस्तु तत्र सः विद्यते इति. हा
अस्तु महोदय. सः अविद्यत तौ अविद्येतां ते अविद्यन्त
समीचीनं
त्वम् अविद्यथाः युवाम् अविद्येथां यूयम् अविद्यध्वम् अहम् अविद्ये आवाम् अविद्यावहि वयम् अविद्यामहि
हा समीचीनं भगिनि हा अस्तु तत्र कुत्र कुत्र एकारः अस्ति इति वदति वा पुनः
एकारः तु द्विवचने प्रथममध्यमपुरुषे उत्तमपुरुषे एकवचनम्
एकवचने समीचीनं भगिनि हा केवलं तत्र त्रिषु स्थलेषु एकारः अस्ति अन्यत्र सर्वत्र तत्र अविध्यत इति एव तत्र विध्यताकारः एव तादृशरूपमेव अस्ति समीचीनं भगिनि अस्तु लक्ष्मी भगिनी इदानीं तत्र प्रार्थयते इति
पूर्वम् अहं प्रार्थयते वा
तत्र अस्तु त्यजामः अथवा तत्र प्रार्थयत सा प्रार्थयत सा प्रार्थयते प्रार्थयते इति
सा अप्रार्थयत
ते
ते अप्रार्थयेतां ताः अप्रार्थयन्त त्वम् अप्रार्थयताः युवाम् अप्रार्थयेतां यूयम् प्रार्थयध्वम् अहम् अप्रार्थये आवाम् अप्रार्थयावहि वयम् अप्रार्थयामहि
हा समीचीनं भगिनि हा समीचीनम् अस्तु रघुवीरेन्द्रस्वामी इदानीं तत्र रमते तत्र सः रमते
सः रमेत
अरमत अरमत खलु
केवलं लङ् महोदय
हा केवलं लङ्
सः अरमत् सः अरमेतां तौ अरमेतां ते अव अरमन्त
वदतु महोदय रघुपति महोदय वदतु
ध्वनि श्रूयते वा
कस्य ध्वनिः
कुत्रापि ध्वनिः नास्ति महोदय हा महोदय
श्रूयते वा महोदय महोदय
भवतः ध्वनिः श्रूयते महोदय श्रूयते किन्तु इदानीं
न श्रोतुं शक्नोमि अपि च भगिनी उक्तवती प्रार्थयते इति प्र उपसर्गः अस्ति खलु अतः आ इति मध्ये आगच्छति खलु
हा तत्र प्र इति उपसर्ग आ इति अस्ति सत्यं महोदय किन्तु पुनः तत्र अत्र कोऽपि भेदः न भवति खलु महोदय
लङ्लकारभेदः भवति
हा हा किन्तु तत्र सत्यं सत्यं सत्यम् अपि विधिलिङ्लकारे अपि प्रायशः
भेदः
अकारः अकारः एव अस्ति खलु महोदय अतः तत्र अतः एव अहं तत्र उत्पद्यते इति त्यक्तवान् अतः एव तत्र रमते इति गतवान् अपि अग्रिमं भवति तत्र केवलं जायते न तु विजयते उपसर्गस्य विषये जानीमः किन्तु प्रथमवारं यदि अभ्यासं कुर्मः मास्तु खलु अस्तु रघुवीरनन्दस्वामी तत्र सः अरमत
सः अरमत तौ अरमेतां ते अरमन्त त्वम् अरमथाः युवाम् अरमथां यूयम् अरमध्वम् अहम् अरमे आवाम् अरमावहि वयम् अरमामहि
हा समीचीनं महोदय समीचीनं हा अस्तु इदानीं रघुपति महोदय तत्र केवलं जयते इति सः जयते
सः जयति अस्तु सः अजयत तौ अजयेतां ते अजयन्त त्वम् अजयथाः युवाम् अजयेथां यूयम् अजयध्वम् अहम् अजे
अजये
अजये अजये अजये अहम् अजये आवाम् अजयावहि वयम् अजयामहि
हा इति समीचीनं हा गीताञ्जलि भगिनी इदानीं तत्र शोभते हा इति तत्र अथवा भगिनि तत्र लभते इति कृतं खलु अस्तु तत्र वर्धत अपि कृतं अस्तु अस्तु एकनिमिष भगिनि हा हा लोकते हा लोकते अस्ति हा हा सः लोकते
सः अलोकत तौ अलोकेतां ते अलोकन्त त्वं अलोकथाः त्वं युवाम् अलोकेथां यूयम् अलोकध्वम् अहम् अलोके के आवाम् अलो आवाम् अलोकामहि अलोकावहि वयम् अलोकामहि
हा समीचीनं भगिनि इदानीं तत्र पुनः तत्र उत्तमपुरुषे तत्र वन्दते अस्ति चेत् तत्र लट्लकारे किं भवति तत्र वन्दते वन्देते वन्दन्ते किन्तु उत्तमपुरुषे किं भवति वन्दे इति अस्ति खलु तादृशमेव तत्र अवन्दे हा अवन्दे केवलं तत्र अहं वर्धे इदानीम् अहम् अवर्धे तावदेव खलु तत्र केवलम् अकारः स्थापनीयं खलु भगिनि एव तत्र अस्ति अतः तत्र उत्तमपुरुषे अकारस्थापनेन लङ्लकरूपं सिद्धम् अपि तत्र वन्दावहि तत्र किं भवति वन्दावहे वन्दामहे इति स्थाने तत्र अकारः अस्ति अपि तत्र वहे स्थाने ईकारः खलु हा अतः तत्र उत्तमपुरुषस्य रूपाणि सुलभानि एव इदानीं तत्र मध्यमपुरुषे किं भवति तत्र कुत्र कष्टमस्ति तत्र
यथा लट् अस्ति तथैव भवति महोदय किन्तु अ आयाति तदेव
तत्र मध्यमपुरुषे किम् अस्ति तत्र वन्दते
वन्दथाः वन्देथां वन्दध्वम् अत्र तु अवन्दथाः अवन्देथाम् अवन्दध्वम्
अत्र अपि तत्र अकारस्थापनम्
इत्युक्ते यदि लट् लट् रूपस्य आदौ अस्थापयित्वा आत्मनेपदी लङ् भवति तदेव
तत्र अकारस्य स्थापनं किञ्चित् तत्र भेदः अस्ति किन्तु तावत् नास्ति खलु किञ्चित् भेदः अस्ति अपि तत्र
महोदय कुत्र अस्ति
न न मीन् नाम तत्र अकारः स्थापनीयम् इति तादृशं तावदेव सुलभभेदः तु सुलभः अस्ति अपि तत्र वयं जानीमः तत्र वन्दते वन्देते इति अस्ति खलु तत्र एकारः द्विवचने अस्ति आत्मनेपदी धातूनां लट्लकारे
अत्रापि
ये अस्ति अतः तत्र प्रथमपुरुषे अपि तत्र मध्ये एकारः द्विवचने अस्ति मध्यमपुरुषे अपि अस्ति अतः तत्र एतत् स्मर्तुं शक्नुमः वयं खलु अतः तत्र यदा यदि पुस्तकं पिहितम् अस्ति चेत् अपि एतत् कर्तुं
दृष्ट्वा एव वदामि महोदय
हा इति वा भगिनि हा समीचीनं भगिनि हा समीचीनं हा सन्तोषजनकम् अस्ति
प्रश्न क्षम्यतां भगिनि महोदय विलम्बेन आगतवती किन्तु किमर्थं दिधि अपि च लङ् एकम् एव
इदानीं तदेव इदानीं लङ्लकारम् अभ्यासं लङ्लकारस्य अभ्यासं जातम् इदानीं विधिलिङ्लकारं पश्यामः भवती एव वदति तत्र किमर्थम् अत्र स्थापितम् इति अस्तु अस्तु उत्तमप्रश्नः भगिनी. अस्तु लक्ष्मी भगिनी, इदानीं तत्र विधिलिङ्गकारः तत्र वर्धेत वर्धेयाताम् इति अस्ति, तत्र जायते इति पदस्य करोति वा भगिनी विधिलिङ्गकार इदानीं?
अस्तु, जायेत जायेयाथां जायेरन् जायेताः जायेयाथां जायेध्वं जायेय जायेवहि जायेमहि.
हा इति अस्ति, समीचीनं भगिनि. हा अतः तत्र सामान्यमस्ति वा भगिनि तत्र तत्र लङ्लकारः अपि तत्र विधिलिङ्गकार तयो मध्ये
ईकारः क्रियते सर्वत्र.
हा तत्र प्रथमतया अकारः नास्ति, अपि तत्र एकारः अस्ति, अपि एकारः अस्ति, अपि तत्र जाये रन् इति अस्ति, जायन्त अजायन्त इति स्थाने जाये रन् इति रकारः रन् इति अस्ति, रन् इति अस्ति, अपि तत्र अजाये इति स्थाने अजायेय इति यकारः अपि आगच्छति, अपि मध्ये द्विवचने तत्र अजायेताम् इति स्थाने जाये याताम् इति अस्ति, अपि अजायेथाम् इति स्थाने जाये या थाम् इति अस्ति. अस्तु इदानीं तत्र रघुवीरानन्दस्वामी, इदानीं तत्र विधिलिङ्गकारस्य तत्र शोभते इति करोति वा महोदय? विधिलिङ्गकारः
आम् महोदय, शोभते शोभेत शोभेयातां शोभेरन् शोभेथाः शोभेयाथां शोभेध्वं शोभेय शोभेवहि शोभेमहि.
हा इति अस्तु महोदय. इदानीम् उक्तवान्, इदानीं तत्र पुस्तकम् अदृष्ट्वा वदति वा?
हा महोदय, किमपि अन्यं
वा? न तदेव तदेव शोभेतां
शोभेर शोभे
ताः
शोभेथाः शोभे
याथां याथां
शोभे या शोभेथाः शोभे याथां शोभेध्वं शोभे
अशोभे न न तत्र शोभेय शोभेय
शोभेय शोभेमहि शोभेमहि
शोभेवहि शोभेमहि. समीचीनं महोदय, धन्यवादः. हा अस्तु, इदानीं रघुपतिमहोदय तत्र कम्पते इति भवान् कम्पते इति कृतवान्, अस्तु तत्र विद्यते इति
विद्यते विद्येत श्रूयते वा?
श्रूयते महोदय, श्रूयते.
विद्येत विद्येयातां विद्येरन् विद्येताः विद्येयातां विद्येध्वं विद्येय
समीचीनं विद्येय
विद्येय विद्येय विद्ये विद्येवहि विद्येमहि.
हा इति समीचीनं महोदय. इदानीं तत्र पुस्तकम् अदृष्ट्वा वदति वा महोदय?
पुस्तकम् अदृष्ट्वा एव उक्तवान्.
अदृष्ट्वा एव, अस्तु समीचीनं, धन्यवादः
महोदय. न अभ्यासः भवतु तु विद्येत विद्येयातां विद्येरन् विद्येताः विद्येयातां विद्येध्वं विद्येय विद्येवहि विद्येमहि.
हा इति समीचीनं महोदय, धन्यवादः. हा अस्तु, इदानीं गीताञ्जलि भगिनी तत्र कम्पते इति विधिलिङ्गकारः
अस्ति चेत् कम्पे दृष्ट्वा अधुना कम्पेत कम्पेयातां कम्पेरन् कम्पेथाः कम्पेयाथां कम्पेध्वं कम्पे कम्पेय कम्पेवहि कम्पेमहि. अस्तु, तत्र अपि महोदय प्रथम मध्यमपुरुष द्विवचने या आयाति, अपि च उत्तम एकवचन य आयाति.
समीचीनं भगिनि, हा समीचीनं. हा अपि तत्र रन् इति अस्ति पूर्वं तत्र, हा
रन् रन् अस्ति
तत्र अकम्पन्त इति स्थाने कम्पेरन् इति अस्ति.
अदृष्ट्वा
वदतु भगिनि, वदतु भगिनि.
कम्पेत कम्पेयातां कम्पेरन् कम्पेथाः कम्पेयाथां कम्पेत्वं कम्पेय कम्पे बहि कम्पे महि
इति. समीचीनं भगिनि, अस्तु. बहु समीचीनम् अस्ति. अतः तत्र केवलम् एकवारम् एतद् कृत्वा अग्रे तत्र पाठं पठितुं गच्छामः. अतः तत्र केवलम् एकवारं. अस्तु लक्ष्मी भगिनी, इदानीं तत्र तत्र रमते इति करोति वा भगिनि?
अस्तु. रमेत रमेयातां रमेरन् रमेथाः रमेयाथां रमेध्वं रमेय रमेवहि रमेमहि.
अस्तु भगिनि, समीचीनम्. अदृष्ट्वा वा अथवा दृष्ट्वा वा एतत् कृतवान्?
अदृष्ट्वा.
समीचीनं भगिनि, धन्यवादः. अस्तु इदानीं रघुवीरानन्दस्वामी तत्र जयते इति. रघुवीरानन्दस्वामी
म्यूट् मध्ये अहम् अवदम्.
अस्तु अस्तु महोदय.
जय जय जयेत जयेयाथां जयेयातां जयेरन् जयेथाः जये जयेयाथा
जयेयाथां
जये जयेथाः जये
याथां
जयेध्वं जये 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 जयेय जये जयेयामहि जये जये वामहि जये
न न जये वहि जये वहि केवलं जये वहि जये वहि जये महि
जये वहि जये महि.
तत्र यकार महोदय केवलं तत्र द्विवचने प्रथमपुरुषे मध्यमपुरुषे अस्ति, अपि उत्तमपुरुषे केवलम् एकवचने एव. अतः तत्र जयेय इति. किन्तु जये वहि जये महि इति. समीचीनं महोदय. अस्तु रघुपतिमहोदय, इदानीं तत्र सेवते इति.
सेवते सेवते सेवेत सेवेयातां सेवेरन् सेवेथाः सेवेयातां सेवेद्वं सेवेय सेवे वहि सेवे महि.
समीचीनं महोदय. अस्तु इदानीं गीताञ्जलि भगिनी तत्र मोदते इति.
मोदेत मोदेयातां मोदेरन् मोदेथाः मोदेयाथां मोदेध्वम् मोदेय मोदेवहि मोदेमहि.
समीचीनं भगिनि, धन्यवादः. अतः तत्र अत्र किमस्ति, तत्र अल्पप्राणः वा महाप्राणः वा तत्र भेदः तत्र महत्त्वपूर्णमस्ति, यतोहि तत्र द्विवचने तत्र मोदेयाथां तत्तु प्रथमपुरुषः अस्ति, किन्तु मोदेयाथाम् इति तत् मध्यमपुरुषः अस्ति. तत्र मध्यमपुरुषे महाप्राणः अस्ति, प्रथमपुरुषे तत्र अल्पप्राणतकारः अस्ति इति.
आत्मनेपदी तु सर्वदा
तदेव तदेव अस्ति, तदेव अस्ति. सत्यं भगिनि. किन्तु तत्र स्मर्तव्यमस्ति तत्र उच्चारणसमये तावदेव. अपि यदि तत्र रूपं दत्तमस्ति तत्र महाप्राणं दृष्ट्वा जानीमः अस्तु एतत् मध्यमपुरुषः भवेत् इति खलु. अतः अतः उक्तवान् तावदेव. अस्तु अतः तत्र वयं जानीमः तत्र सामीप्यम् अस्ति तत्र लङ्लकाररूपाणि यानि सन्ति अपि तत्र विधिलिङ्लकाररूपाणि यानि सन्ति तेषां मध्ये तत्र सामान्यं किञ्चित् सामान्यं भवति इति. अतः तत्र यदि एकस्य स्थापनं भवति मनसि अन्यस्य अपि स्थापनं कष्टकरं नास्ति, कष्टकरं नास्ति इति. अस्तु, इदानीं पाठं पठामः. पाठे तत्र प्रथमं कार्यम् अस्ति, तत्र यत्र स्थूलक्षरं स्थूलक्षरेण दत्तमस्ति तत्र तत्पदं तत्र लङ्लकाररूपं वा विधिलिङ्लकाररूपं वा इति तत्र तस्य ज्ञानं प्रथमतया अपेक्षितमस्ति. अस्तु, तर्हि इदानीं तत्र आरम्भं कुर्मः. तत्र लक्ष्मी भगिनी आरम्भं करोति वा भगिनी पाठं? तत्र एकाधिकशततमे पुटे पाठः अस्ति, तं पाठम्.
अस्तु महोदय. एक पुटसङ्ख्या
पूर्वस्मिन् पुटे भगिनि, तत्र पूर्वस्मिन् पुटे तत्र षोडशपाठः धीरमाता विदुला इति.
धीरमाता विदुला. सौवीरदेशे सञ्जयः नाम राजा अवर्तत. तस्य पिता वृद्धक्षत्रः, माता च विदुला. अग्रे पठामि वा?
पठतु पठतु भगिनि.
कदाचित् सञ्जयस्य समीपराज्यस्येन सिन्धुराजेन सह युद्धं प्रावर्तत. यद्यपि सञ्जयः भृशम् अयुध्यत, तथापि तस्य सैन्यं पराजयम् अलभत. बहवः सैनिकाः अम्रियन्त. भीतः सञ्जयः प्राणान् रक्षितुं ततः पलायत. राजभवनम् आगतः सः अन्तःपुरं प्रायः
प्राप्य
निरुत्साहतया अशेत.
अग्रे पठतु भगिनि.
रणाङ्गणात् आगतं पुत्रं विदुला दूरात् एव अलोकत. पश्चात् सा पुत्रस्य निकटं गत्वा अब्रूत, सञ्जय भवादृशं भीरुं पुत्रं प्राप्य अहं नितरां लज्जे. भवान् यावज्जीवं युध्येत इति चिन्तनं मम मनसि अवर्तत. परं भवान् भीरुः इव पलायितः. पुत्र, त्वं वीरक्षत्रियकुले अजायताः. पलायनं न ते भूषणम्. अतः इदानीम् एव युद्धक्षेत्रं प्रति निवर्तस्व. मुहूर्तं ज्वलितं श्रेयः, न तु धूमायितं चिरम् इति वाक्यं स्मर. पराक्रमेण युध्यस्व इति.
हा, समीचीनं भगिनि, धन्यवादः. अस्तु, अग्रे रघुवीरानन्दस्वामी.
महोदय, तदा सञ्जयः, अम्ब, शत्रुसैन्यम् अस्माकं सैन्यस्य अपेक्षया बृहत् शक्तियुक्तं च अस्ति. एकनिमिषम्. अतः एव वयं पराजयामहि. अग्रे बृहतः सैन्यस्य सङ्ग्रहं कृत्वा विजयं लप्स्यते. अद्य यदि तत्र गच्छेयं तर्हि अवश्यम् एव म्रियेय इति अवदत्. गुला पुत्रस्य वचनं निराकुरुत. सा पुनः अपि, पुत्र, भवान् युद्धे विजेयत न वा, चिन्तं मा करोतु, युद्धक्षेत्रं गच्छतु. राजानं भवन्तं पलायितं दृष्ट्वा सैनिकाः किं कुर्वीरन्? ते किं कर्तव्यमि? मूढाः जायरन्. अतः भवान् आदौ विकीर्णस्य सैन्यस्य एकत्रीकरणं कुर्वीत. सिद्धुराजस्य सैन्ये विद्यमानान् दोषान् लोपाञ्च जानीयात. तस्य शत्रवः राजानः ये सन्ति तान् अपि आह्वयेत् तदनन्तरं तेन सह युध्येत भवान् अवश्यं विजयेत इति तं प्रोत्साहितवती.
हा समीचीनं महोदय, धन्यवादः. अस्तु अग्रे गीताञ्जलि भगिनि.
मातुः वचनेन सञ्जय जागरितः. सः असामान्यं धैर्यम् अलभत. तस्य उत्साहः अवर्धत. सः उत्थाय मातरं प्रणम्य अम्ब धीरमातुः भवत्याः वचनैः अहं नूतनः मनुष्यः अजाये. मम पराक्रमं लोकताम्. अद्य अवश्यं विजयं लभेय इति उक्त्वा युद्धार्थं प्रातिष्ठत. सञ्जयः मातृवचनानुसारेण शीघ्रमेव सैन्यं सज्जीकृत्य झटिति शत्रोः सैन्यस्य उपरि आक्रमणम् अकुरत. विजयोन्मत्तः सिन्धुराजः तस्य सैनिकाः च एतेन आक्रमेण सञ्जयस्य सैनिकाः अपूर्वशौर्येण अयुध्यन्त विजयम् अलभन्त च. विजय श्रीलालितं पुत्रं विदुला यथोचितं
स्वागतीकृतवती. तत्र अहं न जानामि यदि भवन्तः तत्र महाभारतम् इति तत्र हिन्दीभाषायां दृष्टवन्तः न वा, किन्तु तत्र सर्वत्र मातरः किं कुर्वन्ति, तत्र अहं विजयश्री के आशीर्वाद तुमे देता हूँ इति. हा, तत्र विजयश्री लालितं पुत्रम् इति. हा,
अस्तु अस्तु. सो अत्र तत् माता इति.
हा, तत्र विजयश्री, तत्र विजयश्री प्राप्तवन्तः, तत्र लालितं पुत्रं, विजयश्री प्राप्तवान् पुत्रः तं पुत्रम् इति. अतः विजयश्री इति तत्र भवति. समीचीनं भगिनि. हा, अस्तु. तत्र किं, तत्र महाभारते तत्र तस्मिन् अनेकाः तत्र शब्दाः संस्कृतशब्दाः एव सन्ति. अस्तु अस्तु, रघुपतिमहोदय इदानीं तत्र आरम्भतया किञ्चित् पठामः, किन्तु तस्मात् प्राक् तत्र कुत्र लङ्लकारः अपि कुत्र विधिलिङ्लकारः इति तत्र तद् प्रथमतया तत्र वक्तव्यमस्ति. तत्र अतः तत्र कोऽपि जानाति वा तत्र प्रथमपरिच्छेदे द्वितीयपरिच्छेदे विधिलिङ्ग् अस्ति वा अथवा लङ्लकारः अस्ति वा?
सर्वत्र लङ्लकार एव अस्ति.
हा, सर्वत्र लङ्लकार
प्रावर्तत, अयुध्यत, अलभत, अम्यन्त, पलायत.
हा, इति तत्र केवलं तत्र तत्र मध्ये तत्र द्वितीयपरिच्छेदे एकमेव अस्ति इति मन्ये तत्र विधिलिङ्लकारः, किन्तु हा, किन्तु आधिक्येन केवलं लङ्लकाररूपाणि एव सन्ति. अस्तु अस्तु महोदय. तत्र किन्तु इदानीं तत्र सन्दर्भं दृष्ट्वा ज्ञातुं शक्नुमः अस्मिन् पाठे तत्र सम्यक् अस्ति तत्र सन्दर्भः, लङ्लकाररूपम् अपि तत्र सम्यक् भवति, अपि विधिलिङ्लकारः अपि सम्यक् भवति, यतोहि तत्र माता प्रोत्साहं करोति तस्मिन् सन्दर्भे विधिलिङ्लकारः एव समीचीनम् इति. अस्तु अग्रे महोदय, पङ्क्तिशः पठामः इदानीं.
एकनिमिष. सौवीरदेशे सञ्जयः नाम राजा अवर्तत अवर्तत आसीत् इति अत्र वर्तते अवर्तत इति नामराज अवर्तत अवर्तत अवर्ते
अवर्तत अवर्तेताम्
अवर्तत अवर्तेताम्
अवर्तध्वम्
अवर्तन्त अवर्तन्त
अवर्तन्त अवर्तन्त अवर्तन्त क्षम्यताम् अवर्तन्त
अवर्तताः अवर्तताः अवर्तेताम् अवर्तेताम् अवर्तध्वम् अग्रे
अवर्ते
अवर्ते अवर्तावहि अवर्तामहि इति
तत्र दीर्घ आकारः अस्ति अवर्तावहि अवर्तामहि विधिलिङ्गकरे तत्र एवहि एमहि इति समीचीनं महोदय
कदाचित् सञ्जयः
तस्य पिता वृद्धक्षेत्रः क्षत्रः केवलं नामकरणं
तस्य पिता वृद्धक्षत्रः माता च विदुला
केवलं नामकरणम् इति मन्ये तत्र
कदाचित् सञ्जयस्य समीपराजस्थेन सिन्धुराज्येन सह युद्धं प्रावर्तत इति अत्र प्रावर्तत प्रावर्तत इति तदेव अत्र अस्ति
इदानीम् उपसर्गः आरब्धम्
उपसर्ग इत्युक्ते आरब्धम् इति इति अर्थ परिवर्तन अर्थपरिवर्तनं भवति
अस्ति इति नास्ति प्रवर्तत
आरब्धम्
आरब्धं तत्र प्रवर्तते इति स्थाने प्रावर्तत इति
प्रावर्तत इति
तत्र समीपराज्यस्थं समीपराज्यस्थितं
स्थितः समीपराजस्थः राजः सिन्धुराजः तेन समीपराजस्थेन सिन्धुराजेन सह योगे तृतीया इति अत्र यद्यपि सञ्जयः भृशम् अयुध्यत तथापि तत्र सैन्यं पराजयम् अलभत अयुध्यत युध्यते इति अत्र भृशम् अधिकं भृशम् इत्युक्ते
भृशम् इति अधिकम् इति अस्ति अपि अन्यत् तत्र निपुणतया अपि तत्र तत्र सः बहु तत्र केवलं तत्र युद्धं केवलं तस्य सामान्यज्ञानं न किन्तु तत्र निपुणतया सह युद्धं कृतवान्
युद्धं कृतवान् इति अयुध्यत
भृशम् अयुध्यत किन्तु तथापि
तथापि तत् सैन्यं पराजयम् अलभत पराजयम् अलभत इति लभते
अलभत तस्य सैन्यं पराजयं सैन्यं कर्तृपदं पराजयं कर्मपदं
पराजयम् अलभत इति अस्ति बहवः सैनिकाः अम्रियन्त म्रियते इति अत्र अम्रियत अम्रियत अम्रियेताम् अम्रियन्त इति
समीचीनं
सैनिकाः अम्रियन्त मृतवन्तः मृतवन्तः
समीचीनं
भीतः सञ्जयः प्राणान् रक्षितुं ततः पलायत पलायत इति अत्र पलायत पलायत् अस्तु पलायत ततः पलायत तत्र प्र उपसर्गयुक्त अस्ति प्र उपसर्गयुक्त अयते इति अस्ति तत्र पलायत इति भवति पलायत इति
तत्र
अयते अयत अयत इति अस्ति प्रायोग आ इति आङ् इति अत्र पर्रा इति अत्र रकारस्य लकारः भवति केन अन्या सूत्रेण भवति पलायत इति भवति अयते अयेते अयन्ते अय अयत अय अयेताम् अय अयेरन् सोरि
अयन्त अयन्त
अयन् अयन्त इति अतः पलायन्त पलायत इति भवति राजभवनम् आगतः सः अन्तःपुरं प्राप्य निरुत्साहतया अशेत शेते इत्यतः अशेत इति भवति
शेते
शयनं कृतवान् इति अर्थे
सः आगतः सः तत्र आगतः इति विशेषणम् अन्तःपुरं प्राप्य अन्तःपुरं कर्मपदं
प्राप्तवान् प्राप्तवान् अनन्तरं निरुत्साहेन निरुत्साहेन निरुत्साहत निरुत्साहता इति अस्ति निरुत्साहता
स्त्रीलिङ्गे
निरुत्साह निरुत्साहतया इति निरुत्साहं निरुत्साहेन इति भवति खलु तत्
निरुत्साहेन इति वक्तुं शक्नुमः समीचीनं
तृतीया क्रियाविशेषणमस्ति अतः तृतीया अस्ति अत्र
तृतीया
अशेत
अशेत
महोदय एकः प्रश्नः अस्ति तत्र पूर्वस्मिन् वाक्ये भीतः सञ्जयः प्राणान् रक्षितुं ततः पलायजत
पलायत पलायत सोरि
पलायत क्षम्यता महोदय पलायत तु सर्वाणि वाक्यानि तस्मिन् तस्मिन् आदौ तु इत्युक्ते यत्किमपि अभवत् तत्तु
सत्यं हा लङ्लकारे एव अस्ति सर्वत्र लङ्लकारम् एव अस्ति लङ्लकारे
किन्तु अत्र विधि अस्ति चेत् किमर्थं नूतन अर्थ आयाति तेन महोदय
अत्र विधिलिङ्लकारः नास्ति भगिनि अत्र विधिलिङ्लकारः अग्रे आयाति किन्तु एतावत् सर्वाणि तत्र सर्वाणि रूपाणि
तु नास्ति केवल ततः पलायत अस्ति इत्युक्ते अपलायत तु नास्ति
न न तत्र अपलायत इति न तत्र उपसर्ग अस्ति भगिनि तत्र तत्र रघुपति
अयते इति अयते इति अयते इति गच्छति इति अयते इति अयनं खलु रामायणमिति खलु मार्गः इति अयते इति अयधातु अस्ति अयते इति भवति
हा किन्तु तत्र प्र उपसर्गस्य तत्र
आङ् उपसर्ग प्रा इति भवति तत्र पला इति भवति आक तत्र भवति रकारस्य ला भवति इति अस्ति अन्यसूत्रमस्ति अतः पलायत इति भवति तेन तेन पलायनं भवति परायत इति भवेत् परं न भवति रकारस्य लकारः भवति
इत्युक्ते
श्रूयते वा महोदय
श्रूयते महोदय तत्र अयते इति धातु आयि धातु भगिनि तत्र अयते इति लट्लकारे अयते लङ्लकारे आयत इति किन्तु प्र उपसर्ग तद् यथा महोदयेन उक्तं तत्र प्र इति तत्र पलायथ इति भवति तत्र
उपसर्गद्वयं महोदय तत्र प्रा इति नास्ति खलु प्र क्षम्यतां पर न क्षम्यता प्र नास्ति पर परयोग आङ्ग् उपसर्ग अस्ति अतः परा इति भवेत् परा इति पलायोग आयत पलायत इति भवति पर पर प्लस् पर पर प्लस् आङ्ग् उपसर्ग अस्ति
अस्तु अस्तु महोदय उपसर्गद्वयम् अस्ति अस्तु महोदय
परयोग आङ् योग अडागम योग अय योगः
आम्
कथं पर फल भवति तदनन्तरं सूत्रमस्ति
तादृशव्यवहारे अस्ति अतः तद् सूत्रेण तत् कृतवान् परन्तु व्यवहारे पलाय शब्द एव अस्ति खलु अतः फल इति उपसर्गः नास्ति पर
उपसर्गः नास्ति सत्यं सत्यम्
अतः परस्य एव कर्तुं शक्नुमः अतः तेन पाणिनिना किमपि अन्यसूत्रं कृत्वा तल्ला कृतवान्
अस्तु अस्तु महोदय इत्युक्ते परयोगः आङ् अत्र फल
इति भवति
तत्र तत्र पुस्तके अस्ति जनेन्द्र हेगडे तस्य तस्मिन् विषये अपि अस्ति
तेन फला भवति अवगतं महोदय
किन्तु समीचीनप्रश्नः भगिनि यत् तत्र सत्यमेव तत्र अकारः न दृश्यते खलु तत्र आदौ अतः तत्र
किन्तु आङ् आङ् तदनन्तरम् अडागम तदनन्तरम् अय तदनन्तरं ति इति न महोदय अस्तु महोदय धन्यवादः महोदय
अस्तु समीचीनं महोदय धन्यवादः अस्तु तत्र अग्रे तत्र लक्ष्मी भगिनी अग्रे पठति वा भगिनि
अस्तु अस्तु महोदय
रणाङ्गणात्
रणाङ्गणात् आगतं पुत्रं विदुला दूरात् एव अलोकत
तत्र
सा दूरात् एव पुत्रं दृष्टवती.
हा दृष्टवती अलोकत. तत्र अलोकत इति लङ्लकाररूपं. हा तत्र कीदृशपुत्रं कीदृशं पुत्रं हा अपश्यत्. हा कीदृशं पुत्रम् अपश्यत् सा?
रणाङ्गणात् आगतं पुत्रं.
हा तत्र रणाङ्गणात् सः आगच्छन् अस्ति. हा तं पुत्रं तादृशं पुत्रं विदुला दूरात् एव अपश्यत् अथवा अलोकत. हा समीचीनं भगिनि. हा अग्रे.
पश्चात् सा पुत्रस्य निकटं गत्वा अभूद.
तत्र ब्रूत ब्रूते इति अवदत् इति अर्थे अब्रूत लङ्लकार पुनः.
सञ्जय भवादृशं भीरुं पुत्रं प्राप्य अहं नितरां लज्जे. लज्जे लट्लकारम् आत्मनेपदी.
लट्लक हा समीचीनं. हा आत्मनेपदी उत्तमपुरुषे एकवचनं. लज्जते इति सा लज्जते अहं लज्जे.
अहं
नितरां लज्जे. किमर्थं सः वदति अहं नितरां लज्जे इति? भवादृशं भीरुः पुत्रः. भीरुः इति भीरुः इति इत्युक्ते यस्य धैर्यं नास्ति. धैर्यं नास्ति. धैर्यं नास्ति अतः तत्र युद्धे युद्धं कर्तुं तस्य
भीतिः.
हा अतः तत्र भवादृशं तत्र भवान् सदृशं भवादृशं भीरुं पुत्रं प्राप्य. प्राप्य इति तत्र क्रियासूचकम् अस्ति. किं प्राप्य इत्युक्ते पुत्रं प्राप्य. हा अहं
नितरां लज्जे.
हा अहं नितरां लज्जे. समीचीनम् अग्रे.
महोदय क्षम्यताम्. भवादृशम् इति पदं तु न अवगतं महोदय.
भवान् सदृशं तत्र अथवा भवतः सदृशम्.
ओ भवतः सदृशम् अस्तु.
हा भवतः सदृशं भीरुम्.
अस्तु महोदय धन्यवादः.
भवतः सदृशं भवादृशं. तस्य सदृशं तादृशम् इति खलु
महोदय. भवन्तं सदृशम्
अत्र अत्र सत्यं तत्र सत्यं भगिनि. हा तत्र भवन्तं सदृशम् अपि तत् वक्तुं शक्नुमः. हा सदृशं सत्यं भगिनि. हा भवन्तं सदृशं भवतः सदृशम् अथवा भवन्तं सदृशम् अपि तदपि प्रायशः वक्तुं शक्नुमः.
समासः तदेव भवति. हा समासः सिद्धं भवान् समासः अस्ति खलु महोदय. तत्र सन्धिः न भवति खलु.
सन्धिना समासः एव. सत्यं महोदय. समासः एव
भवत् इति भवत् योग तादृशम् इति भवादृशम् इति भवति.
तादृशम् अस्ति तत्र दृशम् इति. हा सत्यं महोदय. हा किन्तु तत्र भवदृशम् इति नास्ति. तत्र भवादृशम् इति अस्ति.
भवतः सदृशं भवत् इति भवत् योग सदृशम् इदं किमपि सूत्रेण भवादृशम्
इति भवति. सत्यं महोदय. हा सत्यं. अस्तु अग्रे भगिनि.
भवान् यावज्जीवं युध्येत इति चिन्तनं मम मनसि अवर्तत.
हा तत्र अवर्तत इति लकारः कः?
लकारः अवर्तत लङ्लकारः.
लङ्लकारः अस्तु. इदानीं तत्र मम मनसि अवर्तत लङ्लकारः. हा चिन्तनम् अवर्तत इत्युक्ते तत्र लङ्लकारे अस्ति. यदि लङ्लकारस्य प्रयोगं कुर्मः तत्र अर्थः कः? पूर्वम् आसीत् खलु भूतकाले इति खलु. इदानीम् इत्युक्ते तत्र इदानीं नास्ति इति खलु. चिन्तनं पूर्वम् आसीत् इदानीं नास्ति इति खलु. हा इदानीं किं चिन्तनं पूर्वम् आसीत् किन्तु इदानीं नास्ति? भवान्
यावज्जीवं युध्येत इति चिन्तनं.
हा इति चिन्तनं तत्र भवान् यावज्जीवं युध्येत. युध्येत इति लकारः कः?
विधिलिङ्ग.
हा त तत्र भवान् यावज्जीवं तत्र यावज्जीवम् इत्युक्ते
पर्यन्तं
हा जीवनपर्यन्तं तत्र युद्धे एव भवान् तत्र मरणप्राप्तिः भवतः मरणप्राप्तिः भवेत् इति ततः तत्र यावज्जीवं युध्येत इति विधिलिङ्गकारः इदानीं हा युध्येत इति चिन्तनं मम मनसि अवर्तत इदानीं नास्ति यतोहि भवान् तत्र पुनरागतवान् तत्र हा पलायनं कृत्वा आगतवान् अतः तत्र इदानीं मम मनसि तत् चिन्तनं नास्ति अतः तत्र अवर्तत इति अस्ति हा समीचीनं भगिनि अग्रे
परं भवान् भीरुः इव पलायितः
हा परम् इत्युक्ते परन्तु हा
पलायितः इति प्रत्ययः
हा पलायितः तत्र हा सत्यं पलायनं कृतवान् हा तत्र पलायितः इति तत्र तप्रत्यय तत्र साधारणतया किम् अस्ति तत्र कर्मार्थे एव भवति किन्तु कर्मविशेषणमेव भवति खलु मया पठितः पठितं पुस्तकम् इति किन्तु तत्र पलायितः इति तत्र कर्त्रार्थे अस्ति खलु तत्र भवान् भीरुः भीरुः इव पलायितः अस्ति अतः तत्र कर्त्रार्थे अस्ति यतोहि तत्र गत्यर्थकधातूनां तप्रत्ययः अस्ति चेत् तत्र कर्त्रार्थे अपि भवितुम् अर्हति तत्र सः गतः इति तादृश तत्र पलायितः भवान् पलायितः भीरुः इव पलायितः परन्तु हा इदानीम् अग्रे
पुत्र त्वं वीरक्षत्रियकुले अजायताः अजायताः आङ्ग्लकारः मध्यमपुरुष एकवचनं
हा जायते इति स्थाने तत्र अजायताः इति मध्यमपुरुषे एकवचने समीचीनं भगिनि हा
पलायनं न ते भूषणं
हा पलायनं किमस्ति तव भूषणं नास्ति पलायनं तव भूषणं नास्ति हा अतः
इदानीम् एव युद्धक्षेत्रं प्रतिनिवर्तस्व
समीचीनं हा तत्र इदानीमेव इत्युक्ते इदानीमेव तत्र एव इत्युक्ते तत्र सीमा यत्र यत्र एव अस्ति तत्र सीमा भवति खलु तत्र इदानीं तत्र समयस्य सीमा अस्ति श्वः न किन्तु इदानीम् एव इति सीमा इदानीम् अस्मिन् समये एव भवान् त्वं किं करोतु युद्धक्षेत्रं प्रति निवर्तस्व इति प्रतिनिवर्तस्व इति तत्र लकारः कः
लकारः
लोट्लकारः आत्मनेपदी दातु किन्तु लोट्लकारः गच्छतु तत्र प्रतिगच्छतु इति अर्थे किन्तु तत्र प्रतिनिवर्तस्व इति समीचीनं भगिनि हा तत्र प्रतिगच्छतु इति अपि वक्तुं शक्नुमः खलु तत्र हा अथवा प्रतिगच्छ इति हा यतोहि त्वम् इति अस्ति प्रतिगच्छ त्वं प्रतिगच्छ अथवा प्रतिनिवर्तस्व इति हा अग्रे
मुहूर्तं ज्वलितं श्रेयः न तु धूमायुधं चिरम् इति वाक्यं स्मर
हा तत्र ज्वलितं मुहूर्तं श्रेयः न तु
धूमायुधं चिरम् इति वाक्यं स्मर वाक्यम् अस्ति
हा तत्र अस्तु मम मनसि अपि किञ्चित् क्लेशः अस्ति कोऽपि वदति वा तत्र ज्वलितं मुहूर्तं श्रेयः इत्युक्ते इदानीमेव तत् करणीयम् इति सत्यं हा किन्तु तत्र धूमायुतं
चिरं धूमायुतं मुहूर्तं न श्रेयः इति
हा किन्तु धूमायुतम् इति इत्युक्ते किं
धूमायुतं धूमः यत्र अस्ति इदानीं तत्र अग्निः नास्ति ज्वलनं नास्ति केवलं धूमः अस्ति इदानीं तत्र तादृश शत्रूणां आक्रमणस्य भीतिः सर्वा धूम इव भीतिः भवति खलु अतः धूमायितं चिरं धूमायितम्
अस्तु अस्तु महोदय, अस्तु
चिरं धूमायितम् इति अस्ति,
अस्तु चिरम् इति तत्र सर्वदा, अस्तु
सर्वदा
नाम तत्र इदानीमेव तत्र शय्यः तत्र अग्रे श्वः वा अथवा अन्यस्मिन् समये वा इति तत्तु न श्रेयः इति, अस्तु न श्रेयः इति, अस्तु
पराक्रमेण युद्धस्व इति,
पुनः युद्धस्व इति तत्र किमस्ति
मध्यमपुरुषे एकवचनम्,
एकवचनं समीचीनं भगिनि, अस्तु धन्यवादः, समीचीनं। अतः तत्र अस्मिन् परिच्छेदे तत्र युद्धेत इति वयं दृष्टवन्तः, तत्र विधिलिङ्गकारः अस्ति, समीचीनं भगिनि, अस्तु अग्रे रघुवीरानन्दस्वामी।
महोदय तदा सञ्जयः वा महोदय?
सत्यं सत्यं,
तदा सञ्जयः, अम्ब शत्रुसैन्यम् अस्माकं सैन्यस्य अपेक्षया बृहत् शक्तियुक्तं च अस्ति, शक्तियुक्तं च अस्ति, अत एव वयं पराजयामहि, पराजयामहि महोदय, पराजयं पराजयामहि, वयम् अस्ति, अतः तत्र
वयं जयामहि, तत्र जयते इति वयं कृतवन्तः खलु, जाय तत्र
जयावहि जयामहि,
जयामहि तत्र परा इति उपसर्गः इति
उपसर्गः,
परा जयामहि, अतः तत्र किमस्ति तत्र तत्र परा जयामहि इति अस्ति तत्र किम् अस्ति
महोदय, दृश्यते
करा अपि तत्र जयामहि इति अस्ति, एकारः नास्ति खलु, जये महि इति नास्ति,
सत्यं
जयामहि इति अस्ति, परा इति अपि अस्ति, समीचीनं महोदय, लङ्लकारः एव, तत्र अग्रे तत्र सर्वम् एकवारं पठित्वा वदति वा अथवा एकमेकं
पङ्क्तिशः इति अहम्,
अस्तु अस्तु महोदय, अस्तु
पठामि। अग्रे बृहतः सैन्यस्य सङ्ग्रहं कृत्वा विजयं लप्स्ये, महोदय लप्स्ये इति अपि पदम् अस्ति खलु
तत्र, लप्स्ये इति तत्र पदं किमस्ति, लकारः कः तत्र, लभते किन्तु लप्स्ये इति भविष्यत्काले इति तत्र 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 प्राप्नोमि किन्तु प्राप्स्यामि इति तत्र लप्स्ये इति,
लप्स्ये आत्मनेपदी,
आत्मनेपदी अस्ति, सत्यं महोदय सत्यं, आत्मनेपदी तत्र भविष्यत्काल, तत्र शत्रुसैन्यम् अस्माकं सैन्यस्य इति तत्र बृहत् शक्तियुक्तं च अस्ति, अस्माकं सैन्यस्य अपेक्षया तत् सैन्यं बृहत् अस्ति अपि शक्तियुक्तमपि अस्ति, अतः एवं वयं पराजयामहि, अतः एव तत्र तस्मात् कारणात् वयं पराजयं प्राप्तवन्तः, इदानीम् अग्रे बृहतः सैन्यस्य सङ्ग्रहं कृत्वा विजयं तत्र लप्स्य इत्युक्ते तत्र अहं प्राप्स्यामि खलु, तत्र लप्स्ये इति तत्र कर्तृपदं किम् अस्ति, तत्र लप्स्ये इति तत्र रूपं दृष्ट्वा तत्र कर्तृपदं किम् इति ऊहां कर्तुं शक्नोति वा महोदय?
वयम् एव महोदय,
अहं लप्स्ये, अहं लप्स्ये, यदि तत्र आत्मनेपदी अस्ति खलु महोदय, तत्र आवाम् अथवा वयम् अस्ति चेत् बहि अथवा महि इति तादृश, किन्तु तद् नास्ति, अतः तत्र अहं लप्स्ये, अहं विजयं लप्स्ये, सैन्यं सङ्ग्रहं कृत्वा अहं विजयं लप्स्ये, तत्तु अग्रे, अग्रे इत्युक्ते इदानीं नास्ति, अन्यस्मिन् समये भविष्यत्काले कदा कदापि अग्रे तत् करोमि, किन्तु अद्य अहं किं करोमि, अद्य यदि
अग्रिमं वाक्यं अद्य यदि तत्र गच्छेयं तर्हि अवश्यम् एव म्रियेय.
अद्य यदि तत्र गच्छेयं, कः तत्र गच्छेयम् इति, तत्र पुरुषः कः, वचनं किम्?
अहं गच्छेयं वा?
हा गच्छेयं, यदि अहं गच्छेयम्, एतत्तु परस्मैपदी धातुः अस्ति खलु, तत्र गच्छेयम् इति दृष्टवन्तः पूर्वं, पूर्वस्मिन् पाठे. यदि अहं गच्छेयमेव
अहं म्रियेय.
हा इदानीं म्रियेय इति किमस्ति?
म्रियेय इति विधिलिङ्ग आत्मनेपदी अस्ति.
हा आत्मनेपदी, तत्र सम्भावनार्थे अस्ति इदानीं. हा अथवा स एतदपि वक्तुं शक्नुमः, सः चिन्तयति तदेव भवति, तदेव तत्र विद्यर्थे, विद्यर्थे इति सः चिन्तयति तदपि वक्तुं शक्नुमः, यतोहि तत्र अवश्यम् इति उक्तवान्, अतः तत्र सम्भावना नास्ति, विद्यर्थे एव तत्र एव अहं म्रियेय इति अवदत्. समीचीनं महोदय. हा अग्रे
महोदय, अत्र मुहूर्तं अहम् इदानीं मुहूर्तं ज्वलितं श्रेयः न तु धूमायितं चिरम् इत्युक्ते, बेटर् टु लीव् फार् ए फ्यू मिनिट्स् लैक् एन् प्रकाशयुतजीवनं, शौर्ययुतजीवनं मुहूर्तमे एव श्रेयः अस्ति, न तु आल्वेस् इन् स्मोकिङ्ग् इति.
ओ अस्तु 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 अस्तु, सर्वदा धूममिव, सर्वदा धूममिव मास्तु, केवलं क्षणमपि तत्र प्रकाशः भवति चेदपि तद् श्रेयः अस्ति इति.
चिरकाल धूमयितं यत् किमपि तत्र प्रयोजनं नास्ति इति, चिरकाल भवितुम् धूमयितेन.
हा चिरकालम् अस्तु अस्तु,
तादृशार्थे.
समीचीनं महोदय, अहं बहु समीचीनं. हा इदानीं धन्यवादः महोदय, हा मया न अवगतं पूर्वं. हा इदानीं समीचीनमस्ति, अतः तत्र मुहूर्तं यावत् ज्वलितम् अस्ति चेदपि तत् श्रेयं भवति.
मुहूर्तं यावत् शौर्येण जीवति,
हा तत् समीचीनं,
तदेव
समीचीनं
महोदय. हा तस्मिन् अर्थे
समीचीनं महोदय. हा समीचीनं, धन्यवादः महोदय. हा अस्तु अस्तु, रघुवीरन् स्वामी अग्रे.
आं महोदय. विदुला पुत्रस्य वचनं निराकुरुत.
निराकुरुत इति तत्र किम् अस्ति?
निर्योगः अकुरुत.
हा लङ्लकारः, निराकुरुत.
सा पुनरपि, हे पुत्र भवान् युद्धे विजेयत. महोदय तत्तु विधिलिङ्गेव.
हा विजेयेत, समीचीनं महोदय. हा तत्र वियोगः जयते, तत्र विजयेत. यदि तत्र लङ्लकारः आसीत् तत्र रूपं किं भवति? तद् वयं तस्य अभ्यासं न कृतवन्तः.
वियोगः योगः जयेत,
जयेत. तत्र किं भवति? जयत, जयत, केवलं जयत, जयत,
व्यजयेत,
व्यजयत, व्यजयत इति भवति.
व्यजयत, सत्यं.
हा व्यजयत इति, हा व्यजयत इति भवति. समीचीनं महोदय. हा तत्र वियोगः अजयत, व्यजयत इति भवति. समीचीनम्. अपि तत्र तत्र निराकुरुत इति तत्र अकुरुत, तत् साधारणरूपं नास्ति खलु महोदय, यतोहि तत्र कुरुते इति तत्र हा तत्तु प्रायशः तत्र, हा तत्र लङ्लकारे तत्र तदेव अस्ति इति मन्ये. तत्र अकुरुत, अकुर् हा तत्र अकुरुत इति अस्ति, किन्तु तत्र अकुर्वाताम् इति अस्ति खलु. अतः तत्र महोदय तत्र निराकुरुत इति एकवचने अस्ति, तत्र अकुरुत इति अस्ति, किन्तु तत्र द्विवचने बहुवचने तत्र किं भवति? तत्र अकुर्वाताम् अकुर्वथ इति अस्ति, न तु तत्र अवर्धन्त इति, तत्र नकारः न तादृशं नास्ति तत्र, यतोहि तत्र प्रथमे गणे नास्ति खलु तत्र कृधातुः. अस्तु अस्तु, अग्रे महोदय.
क्षम्यतां महोदय. पुत्र भवान् युद्धे विजयेत इति विधि अस्ति, विधिलिङ्ग अपि आशीर्लिङ्ग अस्ति चेत् महोदय किमपि भेद आगच्छति वा तत्र?
तत्र विजयेत इति तत्र आशीर्लिङ्ग आशीर्लिङ्ग
अस्ति चेत् किम् अभवत्?
रूपस्य विषये वा अथवा अर्थस्य विषये?
रूपस्य इत्युक्ते अत्र तु आशीर्वाद एव
न आशीर्वाद नास्ति तत्र भवत् सा वदति भवान् युद्धे विजयेत न वा।
ओ अस्तु अत्र आशीर्वाद नास्ति
आशीर्वाद नास्ति आशीर्वाद नास्ति सा वदति सा वदति मुख्यं तत्र भवान् जयं प्राप्नोति न वा इति तत् मुख्यं नास्ति अत्र। अतः यदि भवान् युद्धे विजयेत न वा अतः तत्र यत्किमपि भवतु तत् मुख्यं नास्ति तत्र विजये तत्र युद्धे किं भवति इति सत्यं भगिनि अस्तु भगिनि अस्तु रघुवीरानन्दस्वामी अग्रे
युद्धचिन्तां मा करोतु युद्धक्षेत्रं गच्छतु राजानं भवन्तं पलायितं दृष्ट्वा सैनिकाः किं कुर्वीरन्
हा तत्र कुर्वीरन् इति हा तत्र विधिलिङ्ग तत्र पुनः महोदय तत्र कुरुते इति तत्र आत्मनेपदी धातु क्रियापदं तत्र किं भवति तत्र विधिलिङ्गलकारे तत्र यथा वयं दृष्टवन्तः वर्धेत वर्धे याथां वर्धे रन् इति अस्ति किन्तु तत्र कुर्वीत कुर्वीयातां कुर्वीरन् कुर्वीताः कुर्वीयातां कुर्वीध्वं कुर्वीय कुर्वीवहि कुर्वीमहि तत्र सर्वत्र दीर्घ ईकारः अस्ति अथापि तत्रापि कुर्वीरन् हा सत्यं सत्यं हा सत्यं महोदय ते किं कुर्युः ते सैनिकाः किं कुर्युः तत्र किं कुर्वीरन् किं दृष्ट्वा महोदय किं दृष्ट्वा ते वदति तत्र सैनिकाः तत्र किं कुर्वीरन् राजानं भवन्तं
पलायितं
अतः तत्र प्रथम कर्मपदमस्ति एक प्रथमविभक्तरूपं किं भवति
राजा
राजा भवन्तम् इति तत् किं भवति
भवान्
हा पलायितम् इति
पलायितमिति
प्रथमविभक्तिरूपं
पलायितः
पलायितः तत्र पूर्वं दृष्टवन्तः खलु महोदय तत्र भवान् भीरुः इव पलायितः इति तस्य एव द्वितीयविभक्तिरूपम् अस्ति तत्र भवान् राजा अस्ति पलायितः अस्ति भवन्तं राजानं भवन्तं पलायितं राजानं भवन्तं दृष्ट्वा सैनिकाः किं कुर्युः किं कुर्वीरन् ते
किं कर्तव्य विमूढाः
हा विमूढाः जायेरन् जायते तत्र किं भवति तत्र जायेत
जाये जाये यातां जायेरन्
हा जायेरन् तत्र जायेयुः अथवा तत्र हा तत्र तादृशं तत्र भवन्ति तत्र भवेयुः तत्र ते इत्युक्ते ते सैनिकाः किं कर्तव्यता विमूढाः इत्युक्ते किं कर्तव्यम् इति न जानन्ति अतः न ज्ञात्वा भवन्ति तत्र तादृशौ स्थितौ ते भवन्ति ते सर्वे भवन्ति तत्र किं कर्तव्यम् इति न ज्ञात्वा तत्र हा चिन्तामग्नाः भवन्ति तत्र अतः जायेरन् हा अग्रे
अतः भवान् आदौ विकीर्णस्य सैन्यस्य एकत्रीकरणं कुर्वीत
हा विकीर्णस्य इत्युक्ते तत्र यत्र सैन्यम् एकत्र नास्ति, तत्र सैन्यं तत्र केचन जनाः अस्मिन् अस्यां दिशौ गतवन्तः, अन्यासु अन्यां दिशा तत्र अस्तु, तत्र तत्र इत्युक्ते तत्र एकत्र नास्ति सैन्यम् अत्र, अतः तत्र विकीर्णं विकीर्णस्य सैन्यस्य एकत्रीकरणं तत्र तदेव प्रथमतया करणीयं. तत्र कुर्वीत इति अस्ति, कुर्वीत इति पुनः अत्र किं भवति, विधिलिङ्गकारः,
विधिलिङ्ग् प्रथम एकवचनं,
हा प्रथम प्रथमपुरुषः एकवचनं भवान् इति अस्ति. हा समीचीनं महोदय, अस्तु हा अस्तु, तत्र प्रायशः तत्र एव स्थग तत्र वर्गस्य अन्तः भवतु इति मन्ये महोदय. हा अग्रे तत्र अग्रिमवर्गे यद् अस्ति तत् अग्रे अग्रिमवर्गे कुर्मः. अस्तु, तत्र गीताञ्जलि भगिनी भवती एव तत्र अन्ते तत्र शान्तिमन्त्रं वदति भगिनि.
वदामि महोदय.
ॐ
पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः. हरिः ॐ श्रीगुरुभ्यो नमः. हरिः ॐ.
धन्यवादः महोदय.
धन्यवादः भगिनी.